अयम् पन्थानो वित्तः पुराणो यतो देवाभूतजाहायन्त विश्वेः अतश्चिदा जनिभीष्टप्रवृद्धो मा मातरममुजापत्रवेगः नाहमतो निराजा दुर्गहैतत्तीरश्च नाः पाश्वान्निर्गमाणि बहूनि मे अकृताकत्वानि युद्धैः त्वेन सन्त्वेन पृच्छै राजतीम् मातरमन्वचष्टननानु गान्यर्नुगमानि दष्टर्गृहे अभिभत्सोममिन्द्रस्व दधन्यम् चम्भोः सुतस्य किम् सरधकृणभज्यम् सहस्रम् मासो जभार शरदश्च पूर्वीः नहीन्वस्य प्रतिमानमस्य न दध्यातेषु तये जनित्वाः अवद्यमेव मन्यमाना गुहाः करिन्द्रम् माता वीर्येणाङ्गृष्टम् अथोदस्तात्सुजवत्कम्बसाः नहारोदसी अपृणाज्याजमानः एता अर्षञ्चलराभवन्तीर्भरावरीरिव सङ्क्रोशमानाः एता विपृच्छमिदम् भनन्ति कमापो अद्रिम् परिधिम् रोजन्ति किमिष्मितस्मै निविदा भनन्तेन्द्रस्य पद्यम् दीधिषम् तापाः ममैतान् पुत्रो महता वधेन भृत्यम् च घन्वा असृजद्विसिन्धून् ममच्छलत्वा युवतिः परा सममच्छलत्वा कुशवाः जगार ममच्चिदा पश्युष मे ममृढ्यर्ममच्चिदिन्द्रस्व हसोदतिष्ठत् ममच्चलते मघपन्यम् सोनिविद्वाङ्गपहनो जघान उत्तरो बभूवाच्छिरो दासस्य सम्पीनग्बधेन दृष्टिः स सुवस्त वीरम् दभागमनाधृष्णम् ऋषभम् तुम् रवीन्द्रम् अरीलम् वत्सम् च रथाय माता स्वयम् गातुम् तन्व इच्छमानम् उत माता महिषमन्वेन दधीत्वा जगति पुत्र देवाः अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन् सखे विष्णोवितरम् विक्रमस्व कस्ते मातरम् विधवामगग्रचङ्गस्त्वामजिघांसश्चरम् तम् कस्ते देवो अधीमाद्दीकासीद्य प्राक्षीणाः पितरम् पादगृह्य अवत्यासु न आन्त्राणि पेचेन देवेषु विविदे मर्ढितारम् अवश्यम् जायाममहीयमानामधामेश्येनो मध्वाजभार